अघोर्षि सङ्कर्षणमूर्ति स्वरूपो यो सावादित्य परमपुरुषः अग्निक्रतुचरमायामिष्टिकायाक्षपरुद्रियजपेग्नियोगः सकलस्य रुद्राध्यायस्य श्रीरुद्रो देवता एका गायत्री छन्दः तिस्रोऽनुष्टुभस्तिस्रपङ्क्तयः सप्तानुष्टुभो द्वे जगत्यौ परमेष्ठी ऋषिः विष्णु सजोषसेत्येकादशानामनुवाकानाम् अग्निः काण्ड ऋषिः पाद्या गायत्री आग्ना वैष्णवे शिष्टयजुः वाजादयोन्नादिविशेषा देवताः महाव्याच्छन्दः नमः शम्भवेति बीजम् मयो भवेति शक्तिः नमः शङ्करायेति बीजम् वयस्करायेति शक्तिः नमः शिवायेति बीजम् शिवतरायेति शक्तिः ओङ्कारो बीजम् माया शक्तिः ब्रह्मा बीजम् सुषुम्ना शक्तिः नम इषुकृद्भ्यो धन्वकृद्भ्य इति कीलकम् श्रीभवाने शङ्कर महारुद्रदेवता प्रीत्यर्थे जपे योगः हरि ओम् क्रीडादे बहोर्मनुर्यज्ञने बृहस्पतिरुक्ता मदा निशकसि शतविश्वे देवा मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीन्द्रेभ्यो वाचमुद्यासकशुशुरूषेण्याहम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ नमो भगवते रुद्राय ऋषभे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूव ते धनुः शिवाशरव्या यातवतया नो रुद्रमृणया या ते रुद्रशिवा तनूरघोरापापकाशिनी दयानस्तनुभाषन्तमया गिरिशन्ताभिजाकशी याविशम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरिद्रताम् गुरु माहिगोऽसि पुरुषम् जगत शिवे तव च सा त्वा गिरिशाच्छावदामसि यथादः सर्वमिच्छगद यक्ष्मगसुमना असत अभ्यवोचद विभक्ता प्रथमो दैव्योऽभिषक अहीतश्च सर्वाण्यम् भयम् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये क्षेमाद्रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैषाघ्नेणैवहे असौ यो भसरपतिनीय ग्रीवो विलोहितः उदयनम् गोपादृशम् नदृशम् नुदहार्यः उदयनम् विश्वा भूतानि सदृष्टो मृणयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वा नोहन्तेभ्यो करन्नवः च धन्वनस्त्वमुभयोरात्मियोर्जा याश्च ते हस्त इषवः पराता भगवो वप अह मुखा शिवोन सुमना भवा विज्यन्धनुक्त परति भोविशल्यो बाणवाग्धुदा अमेशन्नस्येशव आपुरस्य निशंगतिः याते हेतिरमेडुष्ट महस्ते बभूवते धनुः तयास्माद् विश्वतस्त्वम यक्ष्मया परिभुजा नमस्ते अस्त्वायुधाया नातदाय धृष्णवे पुनाभ्यामुतते नमो बाहुभ्रान्तवधन्वने परिते धन्वनो हेतिरस्मान् गृणक्तु विश्वतः अथो यदिषुधिस्तवारे अस्मन्निधे हिताम् नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमः वृक्षेभ्यो हरिकेशेभ्य पशूनां सर्वये नमो नमः स्वस्तिञ्जराय कृषीमते पथीनां सर्वये नमो नमो बभुलुषाय विव्याजिनेन्द्रानां पतये नमो नमो हरिकेशाय पुरीरे पुष्पाणां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विवेक्षेत्राणां पतये नमो नमः सूताय अन्याय वराणां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वायवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय निर्णयते पक्षीणां पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निर्व्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिण इषधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते सायूनां पतये नमो नमो निचेरवे परिचराय अरण्यानां पतये नमो नमः सृगादिभ्यो जिघागो सद्भ्यो मृष्टतां पतये नमो नमो श्रीमद्भ्यो नक्तञ्चरद्ग्रहकृन्दानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धनुभाविभ्यश्च वो नमो नम आतन्वाने प्रतिदधानेभ्यश्च वो नमो नम आयक्षद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नमःसीनेभ्यश्च यानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगहतीभ्यश्च वो नमो नमो कृत्सेभ्यो कृत्सपतिभ्यश्च वो नमो नमो प्रातेभ्यो प्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्ग्रहाच्छुल्लकेभ्यश्च वो नमो नमो रतिभ्य रतेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यसेनादिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः सक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलारेभ्य कर्माणेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वरिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवा ఇంద్రాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితిగంఠాయ చ నమః కపర్దినే చౌవ్యర్థకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిబిభీష్టాయ చ నమో మేరుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాధిరాయ చ నమః శీఘ్రియాయ చ శీభ్యాయ చ నమః పూర్ణ్యాయ చావసుమన్యాయ చ నమః స్రోతస్యాయ చ వీర్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్టాయ చ నమః పూర్వజాయ చాపరజాయ చ నమో మధ్యమాయ చాపగల్భాయ చ నమో జఘన్యాయ చ ఉద్మియాయ చ నమః శోభ్యాయ చ ప్రతిసర్యాయ చ నమో యాంగాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్షాయ చ నమః య చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో వరమిణే చ వరూచినే చ నమో దిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చాహనన్యాయ చ నమో ధృష్ణవే చ ప్రభృషాయ చ నమో దూతాయ చ ప్రళితాయ చ నమో విషంగిణే చేషు ధిమతే చ నమః స్థీక్ష్ణేశవే చాయుగిణే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ వక్ష్యాయ చ నమః కాట్యాయ చ వీర్యాయ చ నమః సూద్యాయ చ సరస్యాయ చ నమో మాధ్య వైషందాయ చ నమః కూప్యాయ చ భట్యాయ చ నమో వర్షాయ చ వర్షాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈంద్రియాయ చ తవ్యాయ చ నమో వాద్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ నమః సోమాయ చ రుద్రాయ చ నమస్తామ్రాయ చ వృణాయ చ నమః శృంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తీర్యాయ చ కూల్యాయ చ నమః ఆర్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆకార్యాయ చ భాద్యాయ చ నమః శశ్వ్యాయ చ ప్రేమ్యాయ చ నమః సికత్యాయ చ ప్రవాహ్యాయ చ నమేణ్యాయ చ ప్రపత్యాయ చ నమస్తికశిలాయ చ క్షయణాయ చ నమః కపర్దినే చ కులస్తయే చ నమో గోష్ఠ్యాయ చ వీర్యాయ చ నమస్తల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గహువరేష్ఠాయ చ నమో ఓఢదయ్యాయ చ నివేష్ట్యాయ చ నమః ఆగసవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో ోప్యాయ చోదవ్యాయ చ నమః ఊర్వ్యాయ చ సూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమోపగుణమాణాయ చాభిఘ్నతే చ నమః ఆక్షిదతే చ ప్రక్షిదతే చ నమో వాక్యేభ్యో దేవానాం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వక్తేభ్యో నమామిర్హతేభ్యో నమామి భక్తేభ్యే అన్వసస్పతే దరిద్రన్నీరోహితాం పురుషాణాం పశూనాం మావేర్మా రోమో ఏషాం కించనామమత యాతే రుద్ర శివా తనూ శివా విశ్వాహవేషజీ శివా రుద్రస్య భేషజీ దయానో వృణ జీవసే నివ ग्रुद्राय तपसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यदा दशमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन् नरातुरम् मृडानो रुद्रोतनो मयस्मृति क्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्चमनुरायके पिता तदश्या भतवरुद्र प्रणीतौ मानो महान्तमुतमानो अरभगम् मान उच्छन्तमुतमान उक्षितौ मानो रवेद्विवरम् मोत मातरम् प्रियामानस्तनुवोरुग्रवीषः मानस्थोके तमये मान आयुषि मानो गोषु मानो अश्वेषुरीषः वीरान् मानो रुद्रभावितो वदीर्हविष्मन्तो नमसा विधेमते आराद्रे गोग्र उत पूर्षघ्ने क्षयद्वीराय सुन्नमस्मेते अस्तु रक्षा च नो अधि च देव गुरुयदा च न शर्म यच्छद्विवराः सुहिश्रुतम् गर्थ सधैयुवानम् मृगम् न भीममुपहत्नमुग्रम् रुद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परिक्लेशस्य दुर्मतिरघायो अस्थिरा भगवद्व्यस्तनुष्वमीवस्तो कायतनयाय मृणया मीरुष्टम शिवतम शिवो न सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसाधाचर पिनाकम् विभ्रदागहि त्रिगिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगहेतयोऽन्यमस्मन्निव पन्तुदाः सहस्राणि सहस्रधा बाहुवोस्तमहेतयः दासामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्राधिभूम्याशाको सहस्रयोजने वधन्वादि धन्वसि अस्मिन् महत्यर्णवेऽन्तरिक्षे भवाभि नीरग्रीवाशिधिगण्डा सर्वा अदहाक्षमाचराः नीरग्रीवाशिधिगण्डादिवग रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीरग्रीवा विलोहिताः नामधिपतयो विशिकासर्कपरदिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम्बधिरक्षय ऐलभृदा यौयुधः ये तीर्थानि प्रचरन्ति सृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागोसश्च दिशो रुद्राविधस्थिरे एषागो सहस्रयोजने वदन्वायुधन्वसि नमो रुद्रेभ्यो ये पृथिव्यायेऽन्तरिक्षे ये दिव्येषामन्मौ वातो वर्षविषभस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु ते यन्विष्मो यश्च नो भोजम् वे ददामि ॐ त्र्यम्बकै यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिह वन्दनात् मृत्योर्मुक्षीयमामृतात् ॐ अग्रा विष्णो सजोष सेवावर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसिदिश्च मे दीतिश्च मे क्रतुश्च मे स्वरश्च मे शोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे शुश्च मे चित्तञ्च महाभीतञ्च मे वाक्च मे म मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च महोजश्च मे सहश्च महायुश्च मे जरा च महात्मा च मे धनुश्च मे चर्म च मे वरम च मेऽङ्गानि च मे स्वानि च मे परो दाश च मे शरीराणि च मे जयेष्ट्यञ्च महाधिपत्यं च मे मन्यश्च मे वामश्च मे मश्च मे वश्च मे सेवा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे कृशश्च मे क्रीडा च मे मोदश्च मे ध्यातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यं च मे सुखं च मे सुपतं च मरुद्धं च मरुद्भ्यश्च मे क्लुप्तं च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे षट् च मे वयश्च मे प्रियं च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धरता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे रामयश्च मे जीवादुश्च मे दीर्घायुत्वं च मे मित्रं च मे भयं च मे सुखं च मे शयनं च मे सूषा च मे सुधिरं च मे ऊर्च मे सूदृगा च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सकृदिश्च मे समीधिश्च मे कृशिश्च मे वृष्टिश्च मे चैत्रं च महौद्भिद्यं च मे रजिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णधरं च मे क्षितिश्च मे भूयमाश्च मे क्षुच्च मे प्रीहयश्च मे यमाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे वसुराश्च मे प्रियङ्गमश्च मे णवश्च मे श्यामाकाश्च मे वीवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च महापश्च मे वीरुदश्च महोषधयश्च मे कृष्णपक्षं च मे कृष्णपक्षं च मे ग्राम्याश्च मे पशव अरण्याश्च यज्ञेन कल्पन्ता वित्तं च मे वित्तश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे ऋतश्च मेमश्च मदितिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे भूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्रिणौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अदशिश्च मे रश्मिश्च मे आभ्यश्च मे निभतिश्च म उपागशिश्च मे कल्यामश्च म ऐन्द्रवायवश्च मे मयीन्द्रावरुणश्च महाश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्दीर्णवाग्रहणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुद्ग्रहाश्च ग्राह्याश्च मदेन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे वाग्भीरवतश्च मे हारियोजनश्च मे ऋतुवश्च मे बर्हिश्च मे वेदिश्च मे जिष्मियाश्च मे सुतश्च मे चपसाश्च मे ग्रामाणश्च मे स्वरवश्च मौपहवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूर्धवृच्च महागमनीयश्च महाग्निमित्रश्च मे हविर्धानञ्च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मेवभृतश्च मे स्वराकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे यौश्च मे शक्वरीरङ्गुलयोगिषश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या ृतन्तरे च मे यत्नेन कल्पेत गर्भाश्च मे वत्साश्च मे द्रविश्च मे द्रवी च मे गिद्यवाच्च मे नित्यौही च मे पञ्चाभिश्च मे पञ्चाभी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौही च मे पष्ठवाच्च मे पष्ठौही च मुक्षा च मे वशा च मर्षभश्च मे देहच्च मे नडवाच्च मे धेनुश्च महायुर् यज्ञेन कल्पता प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताञ्चक्षुर्यज्ञेन कल्पताग्रश्रोत्रैर्यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एकाश्च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च मदेकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च मदेकविकशतिश्च मे त्रयोविकशतिश्च मे पञ्चविकशतिश्च मे सप्तविकशतिश्च मे नवविकशतिश्च मदेकत्रिकशच्च मे त्रयस्त्रिकश्च मे चतस्रश्च मे अष्टौ च मे द्वादश च मे षोडश च मे विकशतिश्च मे चतुर्विकशतिश्च मे अष्टाविकशतिश्च मे द्वात्रिकशच्च मे षट्त्रिकशच्च मे चत्वारिकशच्च मे चतुश्चत्वारिकशच्च मे त्राचत्वारिकशच्च मे माजश्च प्रसवश्च द्विजश्च क्रतश्च सुवश्च मूर्धा चौव्यश्नियश्चान्त्यायनश्चान्तश्च मौवनश्च भुवनश्च अधिपतिश्च ॐ क्रीडाते बहूर्मृगयज्ञनीर्बृहस्पतिर्त्वा मदानिषकसि षद्विश्वे देवासुभवा च पृथिवीमातरमाहिनसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमति देवेभ्यो वाच मध्यासकसि शरुषेण्यामनुष्येभ्यस्तम्बा देवा अवन्त्य शोभायै पितरो नु वदन्तु ॐ